अथ श्रीएकदन्तशरणागतिस्तोत्रम् सदात्मरूपं सकलादिभूत ममायिनं सोऽहमचिन्त्य बोधम् अनादिमध्यान्तविहीनमेकं तमेकदन्तम् शरणं व्रजामः तमेकदन्तं शरणं व्रजामः अनन्तचिद्रूपमयं गणेश मभेदभेदादिविहीनमाद्यं हृदि प्रकाशस्य धरं स्वधिस्थन् तमेकदन्तम् शरणं व्रजामः तमेकदन्तं शरणं व्रजामः समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतं सदा निरालंब समाधिगम्यन् तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपां स्ववीर्यकन्तत्र ददाति यो वै तमेकदन्तम् शरणं व्रजामः तमेकदन्तं शरणं व्रजामः त्वदीयवीर्येण समर्थभूतस्वमायया संरचितै च विश्वं तुरीयकं यात्मप्रतीतिसंज्ञन् तमेकदन्तम् शरणं व्रजामः तमेकदन्तं शरणं व्रजामः त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारं भजन्तमत्यन्तमजन्त्रिसंस्थन् तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितै जगद्वै समानरूपं युभयत्र संस्थन् तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् अनेकरूपै च तथैकभूतं तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मै जगदेकसंस्थं सुसात्विकं स्वप्नमनन्तमाद्यन् तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव सदैकरूपं कृपया च तेद्य तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः। त्वदाज्ञया ते न त्वया हृदि स्थन् तथा सुसृष्टै जगदंशरूपम् विभिन्न जाग्रन्मयमप्रमेयन् तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन बभूव भिन्नै च सदैकरूपं तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। सदेव सृष्टि प्रकृतिस्वभावा तदन्तरे त्वयि च विभासि नित्यं धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खेवै भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एकविष्णुः त्वदाज्ञया सौ हरको हरोऽपि तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। यदाज्ञया देवगणादिविस्था ददन्ति वै कर्मफलानि नित्यं यदाज्ञया शैलगणास्थिरा वै तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः यदाज्ञया कालधरोर्यमा च तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः यदाज्ञयेदं सचराचरै च तमेकदन्तं शरणं व्रजामः। तमेकदन्तं शरणं व्रजामः। यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति अनन्तरूपं हृदि बोधकं यस् तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः सुयोगिनो योगबलेन साध्यं प्रकुर्वते कस्तवनेन स्तौति अतः प्रणामेन सुसिद्धिदोस्तु तमेकदन्तं शरणं व्रजामः तमेकदन्तं शरणं व्रजामः गृत्समद उवाच एवं स्तुत्वा गणेशानन्देवासमुनयः प्रभुं तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः सतानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः एकदन्त उवाच स्तोत्रेणाहं प्रसन्नोऽस्मि सुरासर्षिगणाः किल वरदोऽहं वृणतवो दास्यामि मनसीप्सितम् भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् भविष्यति न सन्देहस् सर्वसिद्धिप्रदायकम् यं यमिच्छति तन्तं वै दास्यामि स्तोत्रपाठतः पुत्रपौत्रादिकं सर्वं कलत्रन्धनधान्यकम् गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् भोक्तिं मुक्तै च योगं वै लभते शान्तिदायकम् मारणोच्चाटनादीनि राजबन्धादिकैच यत् पठतां शृण्वतान्नॄणां भवेच्च बन्धहीनता एकविंशतिवारं यश् श्लोकानेवैकविंशतीन् पठे च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् असाध्यं साधयेन्मर्त्यस्सर्वत्र विजयी भवेत् नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः तस्य दर्शनतः सर्वे देवा पूता भवन्ति च इति श्रीमुद्गलपुराणे श्री एकदन्तशरणागतिस्तोत्रं सम्पूर्णम्।